शेषाचला समासाद्य कश्यपाद्या महर्षयः वेंकटेशं रमानाथं शरणं प्रापुरञ्जसा कलिसंतारकं पुण्यं स्तोत्रमेतत् जपे नरः सप्तऋषिवा प्रसादेन विष्णुः तस्मै प्रसीदति। कश्यप उवाच कारी रीमंत विद्यायाः प्राप्यैव परदेवता कलौ श्री वेंकटेशाख्यः त्वामहं शरणं भजे। अत्री उवाच अकारादीक्षकारान्त वर्णय्यः प्रतिपाद्यते कलौ श्री वेंकटेशाख्यः शरणं मे रमापति। भरद्वाज उवाच भगवान् भार्गवीकान्तो भक्ताभीप्सितदायक भक्तस्य वेंकटेशाख्यो भरद्वाजस्य मे गतिः। विश्वामित्र उवाच विराट विष्णुर्विधाता च विश्वविज्ञान विग्रह विश्वामित्रस्य शरणं वेंकटेशो विभुः सदा। गौतम उवाच गौर्गालीश प्रियो नित्यं गोविंदो गोपतिर्विभो शरणं गौतमास्यास्त वेंकटाधि शिरोमणिः। जमदग्निरुवाच जगत्कर्ता जगद्भर्ता जगन्नाथो जगन्मया जमदग्नि प्रसन्नस्य जीवेशो वेंकटेश्वरः। वसिष्ठ उवाच भक्तिज्ञानमात्रं च यन् निर्विशेषं सुखं च सत् तत्र हैवाहमस्मिति वेंकटेशं भजेत् सदा। सप्तर्षिरचितं स्तोत्रं सर्वदा यः पठेन्नरः सोभयं प्राप्नुयान् सत्यं सर्वत्र विजयी भवेत्। शेषाचला समासाद्य कश्यपाद्या महर्षयः वेंकटेशं रमानाथं शरणं प्रापुरञ्जसा कलिसंतारकं पुण्यं स्तोत्रमेतत् जपे नरः सप्तऋषिवा प्रसादेन विष्णुः तस्मै प्रसीदति। कश्यप उवाच कारी रीमंत विद्यायाः प्राप्यैव परदेवता कलौ श्री वेंकटेशाख्यः त्वामहं शरणं भजे। अत्री उवाच अकारादीक्षकारान्त वर्णय्यः प्रतिपाद्यते कलौ श्री वेंकटेशाख्यः शरणं मे रमापति। भरद्वाज उवाच भगवान् भार्गवीकान्तो भक्ताभीप्सितदायक भक्तस्य वेंकटेशाख्यो भरद्वाजस्य मे गतिः। विश्वामित्र उवाच विराट विष्णुर्विधाता च विश्वविज्ञान विग्रह विश्वामित्रस्य शरणं वेंकटेशो विभुः सदा। गौतम उवाच गौर्गालीश प्रियो नित्यं गोविंदो गोपतिर्विभो शरणं गौतमास्यास्त वेंकटाधि शिरोमणिः। जमदग्निरुवाच जगत्कर्ता जगद्भर्ता जगन्नाथो जगन्मया जमदग्नि प्रसन्नस्य जीवेशो वेंकटेश्वरः। वसिष्ठ उवाच भक्तिज्ञानमात्रं च यन् निर्विशेषं सुखं च सत् तत्र हैवाहमस्मिति वेंकटेशं भजेत् सदा। सप्तर्षिरचितं स्तोत्रं सर्वदा यः पठेन्नरः सोभयं प्राप्नुयान् सत्यं सर्वत्र विजयी भवेत्। शेषाचला समासाद्य कश्यपाद्या महर्षयः वेंकटेशं रमानाथं शरणं प्रापुरञ्जसा कलिसंतारकं पुण्यं स्तोत्रमेतत् जपे नरः सप्तऋषिवा प्रसादेन विष्णुः तस्मै प्रसीदति। कश्यप उवाच कारी श्रीमन्त विद्यायाः प्राप्यैव परदेवता कलौ श्रीवेङ्कटेशाख्यः त्वामहं शरणं भजे। अत्री उवाच अकारादीक्षकारान्त वर्णय्यः प्रतिपाद्यते कलौ श्रीवेङ्कटेशाख्यः शरणं मे रमापति। भरद्वाज उवाच भगवान् भार्गवीकान्तो भक्ताभीप्सितदायक भक्तस्य वेङ्कटेशाख्यो भरद्वाजस्य मे गतिः। विश्वामित्र उवाच विराट् विष्णुर्विधाता च विश्वविज्ञानविग्रह विश्वामित्रस्य शरणं वेङ्कटेशो विभुः सदा। गौतम उवाच गौर्गालीशप्रियो नित्यं गोविन्दो गोपतिर्विभो शरणं गौतमास्यास्त वेङ्कटाधीशिरोमणिः। जमदग्निरुवाच जगत्कर्ता जगद्भर्ता जगन्नाथो जगन्मया जमदग्निप्रसन्नस्य जीवेशो वेङ्कटेश्वरः। वसिष्ठ उवाच भक्तिज्ञानमात्रं च यन् निर्विशेषं सुखं च सत् तत्र हैवाहमस्मिति वेङ्कटेशं भजेत् सदा। सप्तर्षिरचितं स्तोत्रं सर्वदा यः पठेन्नरः सोभयं प्राप्नुयान् सत्यं सर्वत्र विजयी भवेत्। शेषाचला समासाद्य कश्यपाद्या महर्षयः वेङ्कटेशं रमानाथं शरणं प्रापुरञ्जसा कलिसंतारकं पुण्यं स्तोत्रमेतत् जपे नरः सप्तऋषिवा प्रसादेन विष्णुः तस्मै प्रसीदति। कश्यप उवाच कारी श्रीमन्त विद्यायाः प्राप्यैव परदेवता कलौ श्रीवेङ्कटेशाख्यः त्वामहं शरणं भजे। अत्री उवाच अकारादीक्षकारान्त वर्णय्यः प्रतिपाद्यते कलौ श्रीवेङ्कटेशाख्यः शरणं मे रमापति। भरद्वाज उवाच भगवान् भार्गवीकान्तो भक्ताभीप्सितदायक भक्तस्य वेङ्कटेशाख्यो भरद्वाजस्य मे गतिः। विश्वामित्र उवाच विराट् विष्णुर्विधाता च विश्वविज्ञानविग्रह विश्वामित्रस्य शरणं वेङ्कटेशो विभुः सदा। गौतम उवाच गौर्गालीशप्रियो नित्यं गोविन्दो गोपतिर्विभो शरणं गौतमास्यास्त वेङ्कटाधीशिरोमणिः। जमदग्निरुवाच जगत्कर्ता जगद्भर्ता जगन्नाथो जगन्मया जमदग्निप्रसन्नस्य जीवेशो वेङ्कटेश्वरः। वसिष्ठ उवाच भक्तिज्ञानमात्रं च यन् निर्विशेषं सुखं च सत् तत्र हैवाहमस्मिति वेङ्कटेशं भजेत् सदा। सप्तर्षिरचितं स्तोत्रं सर्वदा यः पठेन्नरः सोभयं प्राप्नुयान् सत्यं सर्वत्र विजयी भवेत्। शेषाचला समासाद्य कश्यपाद्या महर्षयः वेंकटेशं रमानाथं शरणं प्रापुरञ्जसा कलिसंतारकं पुण्यं स्तोत्रमेतत् जपे नरः सप्तऋषिवा प्रसादेन विष्णुः तस्मै प्रसीदति। कश्यप उवाच कारी श्रीमन्त विद्यायाः प्राप्यैव परदेवता कलौ श्रीवेङ्कटेशाख्यः त्वामहं शरणं भजे। अत्री उवाच अकारादीक्षकारान्त वर्णय्यः प्रतिपाद्यते कलौ श्रीवेङ्कटेशाख्यः शरणं मे रमापति। भरद्वाज उवाच भगवान् भार्गवीकान्तो भक्ताभीप्सितदायक भक्तस्य वेङ्कटेशाख्यो भरद्वाजस्य मे गतिः। विश्वामित्र उवाच विराट् विष्णुर्विधाता च विश्वविज्ञानविग्रह विश्वामित्रस्य शरणं वेङ्कटेशो विभुः सदा। गौतम उवाच गौर्गालीशप्रियो नित्यं गोविन्दो गोपतिर्विभो शरणं गौतमास्यास्त वेङ्कटाधीशिरोमणिः। जमदग्निरुवाच जगत्कर्ता जगद्भर्ता जगन्नाथो जगन्मया जमदग्नि प्रसन्नस्य जीवेशो वेङ्कटेश्वराः। वसिष्ठ उवाच भक्तिज्ञानमात्रं च यन् निर्विशेषं सुखं च सत् तत्र हैवाहमस्मिति वेङ्कटेशं भजेत् सदा। सप्तर्षिरचितं स्तोत्रं सर्वदा यः पठेन्नरः सोभयं प्राप्नुयान् सत्यं सर्वत्र विजयी भवेत्। शेषाचला समासाद्य कश्यपाद्या महर्षयः वेङ्कटेशं रमानाथं शरणं प्रापुरञ्जसा कलिसंतारकं पुण्यं स्तोत्रमेतत् जपे नरः सप्तऋषिवा प्रसादेन विष्णुः तस्मै प्रसीदति। कश्यप उवाच कारी श्रीमन्त विद्यायाः प्राप्यैव परदेवता कलौ श्रीवेङ्कटेशाख्यः त्वामहं शरणं भजे। अत्री उवाच अकारादीक्षकारान्त वर्णय्यः प्रतिपाद्यते कलौ श्रीवेङ्कटेशाख्यः शरणं मे रमापति। भरद्वाज उवाच भगवान् भार्गवीकान्तो भक्ताभीप्सितदायक भक्तस्य वेङ्कटेशाख्यो भरद्वाजस्य मे गतिः। विश्वामित्र उवाच विराट् विष्णुर्विधाता च विश्वविज्ञानविग्रह विश्वामित्रस्य शरणं वेङ्कटेशो विभुः सदा। गौतम उवाच गौर्गालीशप्रियो नित्यं गोविन्दो गोपतिर्विभो शरणं गौतमास्यास्त वेङ्कटाधीशिरोमणिः। जमदग्निरुवाच जगत्कर्ता जगद्भर्ता जगन्नाथो जगन्मया जमदग्नि प्रसन्नस्य जीवेशो वेङ्कटेश्वराः। वसिष्ठ उवाच भक्तिज्ञानमात्रं च यन् निर्विशेषं सुखं च सत् तत्र हैवाहमस्मिति वेङ्कटेशं भजेत् सदा। सप्तर्षिरचितं स्तोत्रं सर्वदा यः पठेन्नरः सोभयं प्राप्नुयान् सत्यं सर्वत्र विजयी भवेत्। शेषाचला समासाद्य कश्यपाद्या महर्षयः वेंकटेशं रमानाथं शरणं प्रापुरञ्जसा। कलिसंतारकं पुण्यं स्तोत्रमेतत् जपे नरः सप्तऋषिवा प्रसादेन विष्णुः तस्मै प्रसीदति। कश्यप उवाच कारी श्रीमन्त विद्यायाः प्राप्यैव परदेवता कलौ श्रीवेङ्कटेशाख्यः त्वामहं शरणं भजे। अत्रियुवाच अकारादीक्षकारान्त वर्णय्यः प्रतिपाद्यते कलौ श्रीवेङ्कटेशाख्यः शरणं मे रमापति। भरद्वाज उवाच भगवान् भार्गवीकान्तो भक्ताभीप्सितदायक भक्तस्य वेङ्कटेशाख्यो भरद्वाजस्य मे गतिः। विश्वामित्र उवाच विराट् विष्णुर्विधाता च विश्वविज्ञानविग्रह विश्वामित्रस्य शरणं वेङ्कटेशो विभुः सदा। गौतम उवाच गौर्गालीशप्रियो नित्यं गोविन्दो गोपतिर्विभो शरणं गौतमास्यास्त वेङ्कटाधीशिरोमणिः। जमदग्निरुवाच जगत्कर्ता जगद्भर्ता जगन्नाथो जगन्मया जमदग्नि प्रसन्नस्य जीवेशो वेङ्कटेश्वरः। वसिष्ठ उवाच भक्तिज्ञानमात्रं च यन् निर्विशेषं सुखं च सत् तत्र हैवाहमस्मिति वेङ्कटेशं भजेत् सदा। सप्तर्षिरचितं स्तोत्रं सर्वदा यः पठेन्नरः सोभयं प्राप्नुयान् सत्यं सर्वत्र विजयी भवेत्। शेषाचला समासाद्य कश्यपाद्या महर्षयः वेङ्कटेशं रमानाथं शरणं प्रापुरञ्जसा। कलिसंतारकं पुण्यं स्तोत्रमेतत् जपे नरः सप्तऋषिवा प्रसादेन विष्णुः तस्मै प्रसीदति। कश्यप उवाच कारी श्रीमन्त विद्यायाः प्राप्यैव परदेवता कलौ श्रीवेङ्कटेशाख्यः त्वामहं शरणं भजे। अत्रियुवाच अकारादीक्षकारान्त वर्णय्यः प्रतिपाद्यते कलौ श्रीवेङ्कटेशाख्यः शरणं मे रमापति। भरद्वाज उवाच भगवान् भार्गवीकान्तो भक्ताभीप्सितदायक भक्तस्य वेङ्कटेशाख्यो भरद्वाजस्य मे गतिः। विश्वामित्र उवाच विराट् विष्णुर्विधाता च विश्वविज्ञानविग्रह विश्वामित्रस्य शरणं वेङ्कटेशो विभुः सदा। गौतम उवाच गौर्गालीशप्रियो नित्यं गोविन्दो गोपतिर्विभो शरणं गौतमास्यास्त वेङ्कटाधीशिरोमणिः। जमदग्निरुवाच जगत्कर्ता जगद्भर्ता जगन्नाथो जगन्मया जमदग्नि प्रसन्नस्य जीवेशो वेङ्कटेश्वरः। वसिष्ठ उवाच भक्तिज्ञानमात्रं च यन् निर्विशेषं सुखं च सत् तत्र हैवाहमस्मिति वेङ्कटेशं भजेत् सदा। सप्तर्षिरचितं स्तोत्रं सर्वदा यः पठेन्नरः सोभयं प्राप्नुयान् सत्यं सर्वत्र विजयी भवेत्। शेषाचला समासाद्य कश्यपाद्या महर्षयः वेंकटेशं रमानाथं शरणं प्रापुरञ्जसा। कलिसंतारकं पुण्यं स्तोत्रमेतत् जपे नरः सप्तऋषिवा प्रसादेन विष्णुः तस्मै प्रसीदति। कश्यप उवाच कारी ध्रीमन्त विद्यायाः प्राप्यैव परदेवता कलौ श्रीवेङ्कटेशाख्यः त्वामहं शरणं भजे। अत्रियुवाच अकारादीक्षकारान्त वर्णय्यः प्रतिपाद्यते कलौ श्रीवेङ्कटेशाख्यः शरणं मे रमापति। भरद्वाज उवाच भगवान् भार्गवीकान्तो भक्ताभीप्सितदायक भक्तस्य वेङ्कटेशाख्यो भरद्वाजस्य मे गतिः। विश्वामित्र उवाच विराट् विष्णुर्विधाता च विश्वविज्ञानविग्रह विश्वामित्रस्य शरणं वेङ्कटेशो विभुः सदा। गौतम उवाच गौर्गालीशप्रियो नित्यं गोविन्दो गोपतिर्विभो शरणं गौतमास्यास्त वेङ्कटाधीशिरोमणिः। जमदग्निरुवाच जगत्कर्ता जगद्भर्ता जगन्नाथो जगन्मया जमदग्नि प्रसन्नस्य जीवेशो वेङ्कटेश्वरः। वसिष्ठ उवाच भक्तिज्ञानमात्रं च यन् निर्विशेषं सुखं च सत् तत्र हैवाहमस्मिति वेङ्कटेशं भजेत् सदा। सप्तर्षिरचितं स्तोत्रं सर्वदा यः पठेन्नरः सोभयं प्राप्नुयान् सत्यं सर्वत्र विजयी भवेत्। शेषाचला समासाद्य कश्यपाद्या महर्षयः वेङ्कटेशं रमानाथं शरणं प्रापुरञ्जसा। कलिसंतारकं पुण्यं स्तोत्रमेतत् जपे नरः सप्तऋषिवा प्रसादेन विष्णुः तस्मै प्रसीदति। कश्यप उवाच कारी ध्रीमन्त विद्यायाः प्राप्यैव परदेवता कलौ श्रीवेङ्कटेशाख्यः त्वामहं शरणं भजे। अत्रियुवाच अकारादीक्षकारान्त वर्णय्यः प्रतिपाद्यते कलौ श्रीवेङ्कटेशाख्यः शरणं मे रमापति। भरद्वाज उवाच भगवान् भार्गवीकान्तो भक्ताभीप्सितदायक भक्तस्य वेङ्कटेशाख्यो भरद्वाजस्य मे गतिः। विश्वामित्र उवाच विराट् विष्णुर्विधाता च विश्वविज्ञानविग्रह विश्वामित्रस्य शरणं वेङ्कटेशो विभुः सदा। गौतम उवाच गौर्गालीशप्रियो नित्यं गोविन्दो गोपतिर्विभो शरणं गौतमास्यास्त वेङ्कटाधीशिरोमणिः। जमदग्निरुवाच जगत्कर्ता जगद्भर्ता जगन्नाथो जगन्मया जमदग्नि प्रसन्नस्य जीवेशो वेङ्कटेश्वरः। वसिष्ठ उवाच भक्तिज्ञानमात्रं च यन् निर्विशेषं सुखं च सत् तत्र हैवाहमस्मिति वेङ्कटेशं भजेत् सदा। सप्तर्षिरचितं स्तोत्रं सर्वदा यः पठेन्नरः सोभयं प्राप्नुयान् सत्यं सर्वत्र विजयी भवेत्। शेषाचला समासाद्य कश्यपाद्या महर्षयः वेंकटेशं रमानाथं शरणं प्रापुरञ्जसा। कलिसंतारकं पुण्यं स्तोत्रमेतत् जपे नरः सप्तऋषिवा प्रसादेन विष्णुः तस्मै प्रसीदति। कश्यप उवाच कारी श्रीमन्त विद्यायाः प्राप्यैव परदेवता कलौ श्रीवेङ्कटेशाख्यः त्वामहं शरणं भजे। अत्री उवाच अकारादीक्षकारान्त वर्णय्यः प्रतिपाद्यते कलौ श्रीवेङ्कटेशाख्यः शरणं मे रमापति। भरद्वाज उवाच भगवान् भार्गवीकान्तो भक्ताभीप्सितदायक भक्तस्य वेङ्कटेशाख्यो भरद्वाजस्य मे गतिः। विश्वामित्र उवाच विराट् विष्णुर्विधाता च विश्वविज्ञानविग्रह विश्वामित्रस्य शरणं वेङ्कटेशो विभुः सदा। गौतम उवाच गौर्गालीशप्रियो नित्यं गोविन्दो गोपतिर्विभो शरणं गौतमास्यास्त वेङ्कटाधीशिरोमणिः। जमदग्निरुवाच जगत्कर्ता जगद्भर्ता जगन्नाथो जगन्मया जमदग्नि प्रसन्नस्य जीवेशो वेङ्कटेश्वरः। वसिष्ठ उवाच भक्तिज्ञानमात्रं च यन् निर्विशेषं सुखं च सत् तत्र हैवाहमस्मिति वेङ्कटेशं भजेत् सदा। सप्तर्षिरचितं स्तोत्रं सर्वदा यः पठेन्नरः सोभयं प्राप्नुयान् सत्यं सर्वत्र विजयी भवेत्। इति श्री वेङ्कटेश शरणागति स्तोत्रं सम्पूर्णम्।